एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति लोकतान्त्रिक मूल्य मान्यतायाः समाज विकासस्य च विपरीततया सर्वकारेण कथं विदाः अपि विधयः न निर्मास्यन्ते। विधि न्याय संसदीय विषय मन्त्रालयेन ह्य सिंहप्रासादे मुलुकी संहिता नाम्ना प्रथिते राज्य नियम संहिता दिवसावसरे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली विधेयक क्रियान्वयनस्य क्रमे दृष्टाः समस्याः काठिन्यानि च समाधातुं विधयः संशोध्यमानाः सन्तोऽपि सामाजिक न्याय समानता सदृशाः विधयः लोकतान्त्रिक मान्यतायाः विपरीततया केऽपि न निर्मास्यन्ति इति समस्पष्टयत्। प्रधानमन्त्री ओली प्रचलित विधिषु विद्यमानानां विवाहस्य वयसः बहुविवाहस्य च पारिवारिक सम्बन्धेन सम्बद्धानां कतिपय प्रावधानानां क्रियान्वयनाय दृष्टां जटिलतां समाधातुं सर्वकारेण विधेः संशोधनम् ईप्सितम् आसीत्। परं बहुविवाहस्य मान्यता नियमानास्तीति कुप्रचारः विद्यमानो वर्तते इत्यतः तत्र विश्वासं न धर्तुम् अन्वरुणत। कार्यक्रमे प्रधान न्यायाधीश प्रकाशमान सिंह राउत विधेयक क्रियान्वयनस्य क्रमे दृष्टानां काठिन्यानां समाधानत्वेन संशोधनं परिमार्जनं च कर्तुं कार्यपालिकायाः व्यवस्थापिकायाः न्यायपालिकायाः च मध्ये सामूहिक विमर्शनस्य आवश्यकतास्तीति प्रत्यपादयत्। कार्यक्रमे विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया समाजस्य गतिशीलतायाः आवश्यकतायाश्च अनुरूपं विधौ परिमार्जनं कृत्वा अग्रे वर्धनीयं भवतीति चर्चयन् विधेः सुधाराय क्रियान्वयनाय च नागरिक समाजस्यापि सक्रिय सहभागितायाः आवश्यकतास्तीति प्रावोचत्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां सम्पन्ने उच्चस्तरीय शासकीय सुधारायोगस्य उपवेशे औचित्यहीनानां सर्वकारीय संस्थानां निरसनस्य समायोजनस्य प्रदेशेभ्य स्थानीय स्तरेभ्यश्च वा हस्तान्तरणस्य विषयेष् विमृष्टं वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये उपविष्टेन उपवेशेन पूर्ववर्तिभिः विभिन्नैः आयोगैः कार्यदलैः वा प्रस्तुतानि प्रतिवेदनानि आधृत्य निरसनस्य समायोजनस्य हस्तान्तरणस्य च कृते परामृष्टानां सर्वकारीय निकायानां विषये विस्तृतम् अध्ययनं विधाय निश्चितं प्रस्तावमानेतुम् आयोगस्य समित्यै दायित्वं प्रदत्तं वर्तते। आयोगे नेपाल सर्वकारस्य मुख्य सचिवस्य एकनारायण अरियालस्य संयोजकत्वे क्रियान्वयन समिति संघटिता वर्तते। आयोगस्य अध्यक्ष प्रधानमन्त्री ओली उद्देश्यस्य अनुकूलस्य समीचीनस्य परिणामस्य विकल्पेन सहितं पञ्चदश दिवसाभ्यन्तरे प्रतिवेदनेन च सहितं प्रस्तावं प्रस्तुतुं क्रियान्वयन समित्यै निरदिशत्। नेपालस्य द्विदिवसात्मकस्य भ्रमणस्य क्रमे ह्य काष्ठमण्डपं प्राप्तेन भारतदेशस्य विदेश सचिवेन विक्रम मिश्र इत्यनेन राष्ट्रपतिना प्रधानमन्त्रिणा च सहितैः विभिन्नानां दलानां नेतृभिश्च सह शिष्टाचार मेलवार्ता विहितास्ति। परराष्ट्र सचिवस्य अमृत बहादुर राई इत्यस्य निमन्त्रणायां नेपालम् आगतेन विदेश सचिवेन मिश्र इत्यनेन प्रधानमन्त्रिणा केपी शर्मा ओलिना सह सिंह प्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये मेलवार्ता विहितास्ति। तदवसरे प्रधानमन्त्रिणे ओलिने भारतस्य प्रधानमन्त्रिणः नरेन्द्र मोदिनः पक्षत विदेश सचिवेन मिश्र इत्यनेन भारतस्य औपचारिक भ्रमणाय निमन्त्रणा दत्तास्तीति प्रधानमन्त्रिणः प्रमुख परामर्शदाता विष्णु रिमालः असूचयत्। एवमेव राष्ट्रपतिना रामचन्द्र पौडेलेन सह भारतीय विदेश सचिवेन मिश्र इत्यनेन शीतल निवासवर्तिनी राष्ट्रपति भवने मेलवार्ता विहितास्ति। विदेश सचिवेन मिश्र इत्यनेन परराष्ट्र मन्त्रिणा डाक्टर आरजू राणा देववा इत्यनया नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देववा विधेन नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन सहापि पृथक पृथक मेलवार्ता विहिता सन्ति। हिन्द कुश हिमालयीय क्षेत्रे विद्यमानानां राष्ट्राणां सांसदानां मध्ये समानधारणायां संवादेषु समन्वयेषु च आयोक्ष्यमाणः हिन्दुकुश हिमालयीय संसदीय उपवेश अद्यतः प्रारभते। संघीय संसद कृषि सहकारी प्राकृतिक स्रोत समिते आयोजनायां अद्य स्वच काष्ठमण्डपे आयोज्यमानस्य उपवेशस्य पूर्वकार्यं प्रपूरितमस्तीति समित्या ज्ञापितं वर्धते। अन्तर्राष्ट्रियैकीकृत पर्वतीय विकास केन्द्रस्य प्राविधिक सहयोगेन आयोक्ष्यमाणे उपवेशे हिन्दकुश हिमालयीय क्षेत्राणां नेपाल भारत चीन बंगलादेश भूटान म्यान्मार पाकिस्तान देशानां संसदीय प्रतिनिधीनां सहभागिता भविष्यति। स्वास्थ्य जनसंख्या मन्त्रालयेन निस्सन्तान समस्यायाः उपचार सेवां व्यवस्थितां विधातुं एतस्याः सेवायाः नियमनाय च निस्सन्तान व्यवस्थापन सेवा संचालन सम्बद्ध एतद् विक्रमवर्षीय मापदण्डः स्वीकृतोऽस्ति। अनेन मापदण्डेन नेपाले निस्सन्तान समस्यायाः उपचार सेवा एतदर्थम् आवश्यक प्रयोगशाला जनशक्ति व्यवस्थापनं शुक्रकीट शोणित दान प्रक्रिया च अतिरिक्त व्यवस्थिता विधातुं शक्यन्ते इति उक्तं वर्तते। मन्त्रालयस्य गुणान्तर मापन नियमन महाशाखाया प्रमुख डा सरोज शर्मा अनेन मापदण्डेन निस्सन्तान समस्यायाः उपचार केन्द्राणां विधेहे आधाराणां प्रभावकारी नियमने उपचार सेवायां च एकरूपता आगच्छतीति अगदत्। गृहमन्त्री रमेश लेखकः राष्ट्रस्य हिताय सर्वजन सौविध्याय च कार्यं कर्तुं सम्बद्धान् कर्मचारिणः निर्दिशति। ह्य मन्त्रालये आगामिनः आर्थिक वर्षस्य कृते गृहसचिवेन संघटन प्रमुखैः महाशाखा प्रमुखैः विभागीय प्रमुखैश्च सह कार्यसम्पदा सम्पादन संविधान विधाय गृहमन्त्री लेखक मादकौषधानां मार्ग दुर्घटनानां आत्महत्यायाः साञ्जालिका अपराधानां च नियन्त्रणाय उल्लेख्यं कार्यं सम्भूतं सदपि परिणामस्य कृते समयः अपेक्ष्यते इति अगदत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ भाषागत समावेशितायाः माध्यमेन संघीयतायाः मर्मणः सम्बोधनं विहितं वर्तते इति सूचयति। एकत्रिंशत्तम तामाङ भाषायाः समाचाराणां प्रसारण दिवसस्य अवसरे तामाङ पत्रकार संघेन ह्यः काष्ठमण्डपे आयोजिते तामाङ संचार पुरस्कार प्रदान कार्यक्रमे मन्त्री गुरूङ सार्वजनिक प्रसारण संस्थायाः राष्ट्रिय समाचार समितितः गोरखा पत्र पत्रिकायाश्च माध्यमेन मातृभाषाणां समाचाराणां सम्प्रेषणं विधाय समावेशितायाः मर्मणानुसारेण संघीयतायाः सुदृढीकरणाय प्रयास अभितोऽस्तीति असूचयत। गोरखापत्रे पञ्चचत्वारिंशति रेडियो नेपाले षड्विंशत्यां राष्ट्रिय समाचार समितौ तिस्री सूच मातृभाषासु समाचाराणां सम्प्रेषणं जायमानम् अस्तीति ज्ञापयन् मन्त्री गुरूङ संचार माध्यमेषु भाषागत समावेशितायाः प्रवर्धनस्य विषय प्राथमिकतया स अग्रे वर्धापितोऽस्तीति उदैरयत्। संघीय विषय सामान्य प्रशासन मन्त्री भगवती न्यौपाने भासते सुशासनस्य व्यवस्थापनाय नीतिगत सुधारस्य कार्यं प्रारब्धं वर्तते। मन्त्रणा रूपेण कार्यभार वहनस्य एकमास प्राप्तेः अवसरे मन्त्रालयेन विहितानि कार्याणि ज्ञापयितुं ह्य आयोजिते पत्रकार सम्मेलने मन्त्री न्यौपाने स्वस्य प्रतिबद्धतायाः अनुरूपं सुशासनाय कर्मचारिणां व्यवस्थापनाय च नीतिगत सुधारस्य कार्याणि विहितानि सन्तीति असूचयत।